సర్వేభ్యో నమస్కారం. శ్రీ సిద్ధాంత కౌమద్యః కారక ప్రకరణే పంచదశ పాఠః. జూలై మాసస్య ద్వితీయః దినాంకః. ఏనాక్షరస్మాం నాయం హ్యుమ్ని మహేశ్వరా కృత్రిం వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః. హాస్యకారం వరకృతిం హర్షకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్తు మునిత్రయం. మునిత్రయం నమస్కృత్య సదుక్తీశ్వరి భాద్యత వైయాకరణ సిద్ధాంత కౌమదీ విరచ్యతే. అస్తు, హ్యః తృతీయ విభక్తి ప్రకరణం ఆరబ్ధం. తత్రాదౌ కర్తృసంజ్ఞాం కరణసంజ్ఞాం చ దదాతి కర్తా స్వతంత్రకర్త. క్రియాసిద్ధౌ స్వాతంత్ర్యేణ వివక్షితః కర్తః. యస్య ప్రాధాన్యం వివక్ష్యతే సః కర్తా. తథా సాధకతమం కరణం ప్రకృష్ట ఉపకారకం. సర్వాణ్యపి కారకాణి ఉపకారకాణి తత్ర ప్రకృష్టోపకారకం కరణసంజ్ఞం భవతి. ప్రకృష్టత్వం నామ కిం? యద్వ్యాపార అనంతరం క్రియాసిద్ధిః. సర్వేషాం కారకాణా వ్యాపారాః భవంతి. తత్ర యస్య వ్యాపారస్య సమనంతరం క్రియాసిద్ధిర్భవతి తత్ కరణం. ఇది కరణసంజ్ఞ విహిత. సో వి వర్ ఇంటరప్టెడ్ ఇన్ బిట్వీన్ వేర్ వి వర్ లుకింగ్ ఎట్ ద దళకృత్య ఆఫ్ ద సూత్ర. సమగ్రహణం కిం ఇది ప్రశ్న. ప్రశ్నస్య కః ఆశయః? సాధకతమం కరణం ఇది ఉచ్యతే. సాధకతమం అతిశయితం సాధకం సాధకతమం అతిశయనే తమవిష్ఠను ఇత్యనేన తమప్రత్యయః. అతిశయితం సాధకం సాధకతమం. సో ప్రకృష్ట ఉపకారకం ఇది అర్థం ప్రాప్తుం సమగ్రహణం ఉచ్యతః. Because that prakrishtatva, we define what is prakrishtatva. We need not just upakarakam. If we just say upakarakam, sarvesha sarvanyapi karakani upakarakani. Since the definition itself is kriyajanakam karakam, all the karakas aid in kriya. So what is the karana? It is a prakrishta upakarakam. So to get that prakrishtatva, he has used that tamak. It's the direct answer. But then, the argument is that we don't need tamak for that. Prakrishtopakarakam iti artham sadhaitum tamagrahanam navashyakam. Kimartham itte karake iti adhikarah asti. Karakam namakim kriyajanakam arthat kriyasiddhau yat upakarakam tadeva karakam. Punaha sadhakam ityukte kahartha. పూర్వమేవ ఉపకారకం ఇది అస్తి. క్రియాసిద్ధౌ కారకాధికారే అస్తి ఇత్యతః ఏవ క్రియాసిద్ధౌ ఉపకారకం ఇది లభ్యతే. పునః సాధకం ఇత్యుక్తే కః అర్థః? యద్ విశిష్య సాధ ప్రకృష్టత్వేన యత్ సాధకమస్తి తదేవ కరణం భవతి ఇది జ్ఞాతుం శక్యతే. యోగార్థేనైవ సాధకం ఇత్యుక్తే సాధయతి, క్రియాం సాధయతి ఇత్యర్థః. కారకే ఇత్యుక్తే అపి సః ఏవ అర్థః. పునఃపునః ద్విరుక్తిః అస్తి. కారకం నామ సాధకం, పునః సాధకం ఇత్యుక్తే విశేషతః యత్ సాధకం ప్రకృష్టేన యత్ ఉపకారకం తదేవ కరణం భవతి ఇత్యర్థః లబ్ధుం శక్యతే. సమగ్రహణం నావశ్యకం ఇది ప్రశ్నః. సో ప్రశ్నస్య ఆశయః, ద క్వశ్చన్ అరైసెస్ బికాజ్ బేస్డ్ ఆన్ ద ఆర్గ్యుమెంట్ దట్ తమక్ ఇస్ నాట్ నీడెడ్ టు గెట్ ద మీనింగ్. వాట్ వి నీడ్ ఇస్ ద మీనింగ్ దట్ ప్రకృష్టోపకారక ఇస్ కరణ, రైట్? సో హి సేస్ ఇట్ ఇస్ నాట్ నీడెడ్, ఈవెన్ వితౌట్ తమస్ వీ కెన్ గెట్ దట్ ప్రకృష్ట ఉపకారక. హౌ? బికాస్ వీ హ్యావ్ ద కారకాధికార. కారక ఇట్సెల్ఫ్ మీన్స్ దట్ విచ్ ఎయిడ్స్ ఇన్ క్రియాసిద్ధి. అగైన్ యు ఆర్ ఎంఫసైజింగ్ సాధకం. సో ద ఎయిడ్ విచ్ ఇస్ ఫార్ క్రియాసిద్ధి షుడ్ బి ద సాధక. So what does it mean again when you are saying sadhaka, when you are emphasizing or saying a point twice, it lays a greater emphasis, and so it says that which is prakrishta upakaraka. So even without tamak, you have the meaning, sutra artha siddhyati. प्रकृष्टोपकारकं करणम्। एवं तर्हि तमग्रहणं किमर्थम् इति प्रश्नः। So for this he gives an example, Gangayam Poshah, which is not relevant here. So because, yes, it is true that in this case, whatever you need can be done. He gives a counter example. If you use such argument elsewhere in Karaka Prakarana, it will lead to undesirable forms. For example, there is this form called Gangayam Poshah. Gangayam Hoshaha Nama Abhirapalli, which is the Hosha is a cowherd village, like Gokula, right? Hosha, a village. Gangayam Hoshaha Kahartaha. This is a very, very famous example in all shastras, wherever you take. So, Tatikas take it for Lakshana. So, what do you mean by that? Gangayam Hoshaha. Right? You're saying Gangayam in the Ganga and the village. So does it mean the village exists in between the Ganga, or rather in the river, in the water? Pravaha ityarthaha. Narthaha. I mean, anybody from the context, they can know that it just means a village which is close to the Ganga, probably on the banks of the Ganga. Right? So samityam iti lakshana, that is what we take generally. So because, I mean, we are not emphasizing that why, I mean, without saying Gangayaha Samipe Ghoshaha, even though it means the same, when you are saying Gangayam Ghoshaha, the emphasis is different. It means that it is so close to the Ganga that it has all the qualities, that is Pavanatva, Shuddhatva, etc. All that are taken on the village also. So there is reason why you do it. But it means Gangayam Ghoshaha is where it is not actually in the Ganga, but it is close to the Ganga. Okay? So this is a kind of adhikarana. And see, when you are saying in something, okay, there is a question I will take later. So now when you are saying Gangayam Hoshaha, and when you are saying Kate Upavishati, or when you are saying Sileshu Sailam, everywhere you can see that you have the Saptami, which means the substratum, but it is of different kinds. Okay? When you are saying Gangayam Hoshaha, the Hosha is not actually in the Ganga. As I said, no, it is located close to the Ganga, but we use a special kind of sambandha to use the adhikarana. So it is not actually situated in the Ganga. Okay. So when you are saying somebody, kate upavishati, here again it is not a complete adhara. You cannot, when you are saying say, tilesha sailam, that is there is oil in the tila, in the seeds, which part of the seed has oil, you cannot say. I mean the whole of the tila is considered as the adhara for the taila. It pervades the tila completely. Okay. So that is one kind of adhara or the substratum. And you are saying kate upavishati, you cannot sit in the, I mean you cannot pervade the entire kata. Right? You sit in one part of the kata. So that is one kind of adhara. So there are different kinds of adhara. There are three kinds which we define when we go to the adhikarana samya. And when you are saying say, harau priti hai. So this again is what is, it is not, Hari is not the adhara for you. We call it as the Vaishayika adhara. Hare hai Vishaye Bhaktihi. So there are different kinds of adhara. So what the argument here is, by adhara adhikaranam, sarvesham api adharanam adhikarana samya bhavati saptami vibhaktishtu vidhiyate. Okay, that is the siddhanta. Right? Adhara adhikaranam ityanena, sarvesham api etesham adharanam. We saw the different kinds. They have some technical terms. We say aupashleshika, vaishayika, abhivyapaka and so on. Sarvesham api adharanam adhikarana samya vidhiyate tatprayutta saptami vibhaktishta bhavati. Kate upavishati, sileshu tailam, gangayam ghoshaha, harau bhaktihi ityadi. Now he says, you have an argument here for saying tamapgrahanam navashyakam. कारकाधिकारादेव उपकारकत्वे सिद्धे पुनः साधकग्रहणात् किमुच्यते साधकतमं प्रकोष्ठोपकारकम् इत्यर्थः सिद्ध्यति, अतः तमग्रहणं नावश्यकम्। तत्रापि एवमेव यौगिकार्थः, अर्थात् कारकं नाम उपकारकं, पुनः साधकं नाम उपकारकं, वि आर् टेकिङ्ग् द एटिमोलाजिकल् मीनिङ्ग् आफ् द टर्म्स् हियर्, रैट्? सो इफ् वि यूस् द सेम् लाजिक् इन् आधार, ओके, यु हाव् आधारः अण्ड् अधिकरणम्, ओके, अधिकरणं नाम कः अर्थः? अधिक्रियते अस्मिन् इत्यधिकरणं, दट् इन् विच् संथिङ्ग् इस् देर् इस् अधिकरण, अगेन् यु आर् सेयिङ्ग् आधार, इट् मीन्स् द सेम्, ओके, so adhara is that which holds. So again there is a dvirupti, just like we said here karake sadhake, sadhakam karakam ityanayoh samanah arthah, atah prakrishta upakarakam iti siddhyati. Tatrapi adharaha adhikaranam ityasti, adhikaranam ityasya sayeva arthah, ityasya yogikarthah tathaiva bhavati, punah adharaha ityuchyate, tena kaha arthah siddhyati, prakrishtatvena yah adharaha, प्रकृष्टः आधारः अधिकरणसमयः भवति। किं नाम प्रकृष्टत्वं तत्र इत्युक्ते यत् पूर्णतया आधारः, सर्वाङ्गतया सर्वात्मतया यः आधारः, अर्थात् अभिव्यापकः, एज़् वी सॉ इन् तिलेषु तैलम् इति, यथा तैलं तिलम् अभिव्याप्नोति, इट् इस् लोकेटेड् इन् आल् पार्ट् आर् इट् पर्वेट् सब्स्ट्रेटम् कम्प्लीट्लि, so that is the prakrishta adhara, that is actually the main kind of adhara. All the other kinds which we say like gangayam koshah are not the main kind of adhara, there we are doing a superimposing of the adharatva or samadatva. The main kind of adhara is there where you have abhivyapaka kind. So what happens if we use the same argument there, similar argument in adhara adhikaranam, we would get the meaning saying adharaha adhikaranam prakrishtetvena yaha adharaha, arthat yaha abhivyapakaha adharaha satyema adhikarana samya bhavati anyesham na bhavati, and in that case what would happen, we cannot have forms like gangayam ghoshah, we will not have saptami in gangayam ghoshah, that is not desired, okay, so in the karaka prakarana that is not desired, whether it is an adhara, vivyapaka, upashleshika or any other kind, we do have adhara samya adhikarana samya, we should have saptami, okay, so that is why he says, that is why he gives gangayam koshah as the example. If we use such kind of an argument there, we cannot have gangayam koshah, I mean the form would not, we cannot derive the form because there is no substance, okay. So he says gauna mukhya nyaya, that is what we call gauna mukhya yohu mukhya karya sampratyaha, it's a paribhasha. It says, I mean many times we have this, there is a mukhya artha and a gauna artha for a particle or for any pada, there is one principal meaning and there are subsidiary meanings which are related in some way but which are not actually that, just like what we saw here, like for adhara there is the mukhya artha abhivyapaka adhara and these kinds where we have gangayam koshah, they are the subsidiary gauna artha. So he says this nyaya, gauna mukhya nyaya, does not apply in karaka prakarana, okay. So in the karaka prakarana you cannot differentiate between, okay, this is the main kind, and you cannot restrict the application of the karaka samya to only the pradhana, even the gauna ones will get the samya, okay. So to indicate that, Panini has used tamap, okay. So once that is established that the gauna mukhya nyaya will not apply here in karaka tamam karanam, if you don't have tamap, you cannot just say sadhakam karakam ityanena prakrishtam yat karakam tasyaiva karanam iti vaktum na shakyate, yadyad upakarakam tasya sarvasyapi karana samya praptvati, tatra prakrishta upakarakam iti artham sadhayitum samagrahanam, that is the entire argument. This is a jnapaka, samagrahanam is treated as an indicator of the fact that gauna mukhya nyaya does not apply in karaka prakarana. Since gauna mukhya nyaya does not apply, we cannot say yat prakrishtam sadhakam bhavati tadeva karanam iti, kevalam sadhakam ityukte vaktum na shakyate, ataha sadhaka tamam iti uchyate tena prakrishtopakarakam karanam. Gauna mukhya nyaya karaka prakarane na pravartate ityasya kim prayojanam, अधिकरणसंज्ञायां प्रयोजनं दृश्यते यद् यत् यः अधिव्यापकः आधारः तस्यापि अधिकरणसंज्ञा भवति यः अन्यादृशः अर्थात् औपश्लेषिकः अन्यविधः वा आधारः तस्यापि अधिकरणसंज्ञा भवति तेन गङ्गायां घोषः इत्यादि रूपाणि सिद्ध्यन्ति दट् इस् द आर्ग्युमेण्ट् दट् इस् वै हि सेस् तव ग्रहणं किम् अण्ड् गङ्गायां घोषः सो इफ् जस्ट् एक्स्प्लेन्ड् इट् विल् गो थ्रू द व्याख्यानानं वाट् हि सेस् and then if you still have any questions you can ask so in between there is a question Gangayam Ghosha is it Jahal Lakshana or Adhal Lakshana actually I'm not sure about this I know the definitions of Jahal Lakshana and Adhal Lakshana it does not exclude the Ganga completely so Adhal Lakshana is where It does not exclude the means. Kakebhyo Dadirakshatam is what they give. Where you have to protect it from kakas and also from something else. Where the thing which has been told is not excluded. That is Ajahal Lakshana. Where if you have Jahal Lakshana, what's the example? Yeah, Shona Dhar. So this should be Jahal Lakshana. Yeah, I mean this is just conjecture, Bhanu Prakashji. I am not an authority on Tarka or Vedanta. I have not studied Vedanta at all. So it is my very unfortunate. And I have studied a bit of Tarka but not to this extent of defining it, but it looks like it is Jahal Lakshana because it cannot be situated in the Ganga itself and we are taking something outside. We are taking the Tira. We are leaving the Ganga and we are taking the Tira. So it looks like Jahal Lakshana, but I am not, this is not Pramana. What I say is not Pramana for other Shastras. So we'll come to the Bala Manorama and see what he says about the Samagrahanam Kim. So Samagrahanam Kim iti pratike sadhakam ityeva uchyatam karakadhikaradeva siddhe punah sadhakagrahanadeva prakrishtam sadhakam iti vijnayate iti prashnaha. So we already have karake and we are repeating sadhake. अतः प्रकृष्टं साधकं यद् मुख्यं साधकं अर्थात् प्रकृष्टं साधकं तस्यैव करणसंज्ञा भवति इति सिद्ध्यति इति आशयः उदाहरणं दीयते गङ्गायां घोषः इति सो गङ्गायां घोषः इति प्रतीयते अयम् आशयः कारकप्रकरणे गौणमुख्यन्यायः एतत् सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं समग्रहणम् अन्यथा आधारोऽधिकरणम् इत्यत्र अन्वर्थमहासंज्ञाबलादेव आधारलाभे अधिकरणम् इति अन्वर्थसंज्ञा महासंज्ञा इट्स् अ लाङ्ग् संज्ञा इट् इस् अन्वर्थ सो तेनैव आधारलाभे यदाधारः तदेव अधिकरणम् सिद्ध्यति पुनः तद्ग्रहणसामर्थ्यात् पुनः आधारः इति गृह्यते तेन सर्वावयवव्याप्त्या यः आधारः सः अधिकरणम् इत्यर्थः स्यात् एवं च तिलेषु तैलं दध्नि सर्पिः इत्यादावेव स्यात् सो ओन्ली इन् दोस् कैण्ड्स् वि वुड् हाव् द अधिकरणसंज्ञा एण्ड् द सप्तमी रिसल्ट् गङ्गायां घोषः कूपे गर्गकुलम् इत्यादौ न स्यात् अतः समग्रहणम् इति भाष्ये स्पष्टम् सो अत्र यद्वक्तव्यं तत् आधारोऽधिकरणं सप्तम्यधिकरणे च इत्यत्र वक्ष्यते So he says, he'll go into more detail when we're taking adhikarana. Okay, but that is what he says there. That is, it is a counter example. If you apply the same argument to adhikarana, you would have problems because you would not get adhikarana samya wherever you need it. And therefore, to indicate that such argument does not hold in karaka prakarana, Panini will present some of your hands. Any questions? कर्तृकरणे तृतीया कर्तृसंज्ञा का इति दृष्टम् एवं करणसंज्ञा का इति दृष्टम् स्वतंत्रः कर्ता साधकतमं करणम् इति दृष्टम् कर्तृकरणयोः तृतीया कर्तुः अनभिहिते कर्तरि अनभिहिते करणे च तृतीया विभक्तिर्भवति इत्यर्थः कर्तृकरणयोः तृतीया अनभिहिते इत्यधिकारः विभक्तिप्रकरणे सर्वत्र अनभिहिताधिकारः परिगणनीय एव अनभिहिते कर्तरि करणे च तृतीया स्यात् सो इफ द कर्ता और द करणा इज अनभिहित वी हैव तृतीया विभक्ति रामेण बाणेन हतो वाली तत्र रामः कर्ता हननम् क्रिया तत्र धात्वर्थ व्यापाराश्रयत्वात् रामस्य कर्तृत्वं प्रकृष्टोपकारकत्वात् सिंस इट इज अ साधकतमम् अतो हि बाणव्यापार समनन्तरं हननं भवति अतः बाणः करण सो हि इज कम्बाइन्ड बोथ सो रामस्य कर्तृत्वात् तृतीया विभक्तिः बाणस्य करणत्वात् तृतीया विभक्तिः सो हतः इति कर्मणि लकारः कर्मणः अभिहितत्वात् वाली इत्यत्र प्रथमा विभक्तिः सो सेम वे इफ यू लुक एट रामः बाणेन वालिनं हतवान् कर्तरि प्रयोगः कर्तुः अभिहितत्वात् प्रथमा विभक्तिः सो दट इज वै ऐ मीन दिस इज वेर जनरली वी हैव द कन्फ्यूजन वेर द कर्ता इज इन प्रथमा सो विते कर्तुः प्रथमा विभक्तिः भवति विच इज नॉट प्रथमा विभक्ति इज नॉट इंडिकेटिंग द कर्ता इट इज जस्ट इंडिकेटिंग द प्रातिपदिका कर्ता तु किंगा अभिहितः किंगा कृता वा अभिहितः इति कारणेन प्रथमा विभक्तिर्भवति किन्तु प्रथमा विभक्त्या कदापि कर्ता नोच्यते कर्तुः विभक्तिः कर्तरि विभक्तिः तृतीयैव ऑलवेज तृतीया रामेणेति कथं शब्दबोधः इति दर्शयति रामकर्तृक बाणकरणक हिंसाक्रियाविषयः वाली इत्यर्थः सो दट इज द शब्दबोध दट टेक्निकल सिंस इट इज कर्मणि कृत् ओके वी हैव द प्रथमा विशेषक शब्दबोध सो इफ इट वर तिङन्त the vyapara visheshaka bodha okay where vyapara should come last in the shabda bodha here we have the prathamanta that is the vali being last because it is hataha rama kartruka rama is the karta vana karanaka hinsa kriya visheyaha vali ityartha so actually in kaumudyam etad anantaram prakrutyadibhya upasankhyanam iti vaktikam diyate किन्तु तत् उपपदतृतीयायाम् अन्तर्भवति वार्तिका बिलोङ्ग्स् टु उपपदतृतीया देयर इज ऑलमोस्ट सूत्र विच डील्स विथ कारकतृतीया एंड देयरफोर आई कवर दट अनन्तरं प्रकृत्यादिभ्योपसंख्यानम् इति वार्तिकं पश्यामः दिवः कर्म च इति अग्रिमं सूत्रम् साधकतमं करणं दिवः कर्म च दिवः कर्म च इति त्रीणि पदानि सन्ति साधकतमं करणम् इत्यतः साधकतमम् इति अनुवर्तते दिवः साधकतमं कारकं कर्मसंयम स्यात् चात् करणसंयम कर्म च इति सो दिवः दीव्यति इति धातुः दिवु क्रीडाविदिगीषा इत्यादि बहु उच्यते सो जनरली दीव्यति ऐ मीन् दिस् सेन्स् इस् यूस्ड् फार् प्लेयिङ्ग् डैस् थ्रोयिङ्ग् प्लेयिङ्ग् द गेम् आफ् डैस् इस् काल् दीव्यति So, divaha sadhakatamam karakam, that which is an instrument for the kriya by divyati. So, the instrument sadhakatamam vastupaha karana samyam bhavati, atratu karma samya api bhavati, karmacha yukyate, chak karana samyam api bhavati. Arthat, karana samya prayukta tritiya vibhaktir api bhavitum arhati, karma samya prayukta dvitiya vibhaktir api bhavitum arhati, tattaha, akshaihi akshanva divyati. So, aksha is that dice, what we use in the game. Okay. So, akshaihi divyati, karanatve tritiyayam akshaihi divyati iti rupam, karmatve dvitiyayam tu akshan divyati iti rupam. So, we can either have tritiya or dvitiya. Akshair akshanva divyati. the minor sutra which covers karaka. It belongs to the karaka because it is defining karaka. So that is about karaka tritiya. There is not much. I mean, in karma samya we had many sutras, but here there is a single sutra for karta and a single one for karana. Okay, there is nothing else. So wherever we have either the karta samya or karana samya, we have tritiya vibhakti. Okay, there is a question. Yes, you are right. Since the rule does not apply, any upakaraka, all karakas, basically all karakas would be karana. So we use tamak to overrule that. It is correct. So now we move on to upapada tritiya. Yatra anyasya padasya yogena tritiya vibhakti vidhiyate. ఆర్థికమస్తి సతత్యానిభ్య ఉపసంఖ్యానం ఉపపద తృతీయ విధానయుతం ఆర్థికమిదం సతత్యాదిగణే ఏ శబ్దాః పఠితాః తేషాం యోగే తృతీయాభక్తిర్భవతి అస్తు తేషామేవ తృతీయాభక్తిర్భవతి నచ తేషాం యోగే. సో we are not saying, these words will get tritiya vibhakti. And this is also an akriti gana, where similar prayogas can be substantiated using this vastika. So, prathamam padamasi prasati itteva, prasatya saruhu. Okay, prathamam udaharana. So, he is that which is attractive by nature. Okay, so there is nothing artificial about it, not attractiveness which is due to artificial things, but by nature. Prakrutya charuhu ityartha. So prakrutya nama svabhavena. Prakrutya charuhu. So if you look at prakrutya aridhya upasankhyanam, tritiyayaha iti sheshaha upapada vibhaktihi iyam. He says it is an upapada vibhakti. Yatha yogam sarva vibhakti apavadaha. So it cannot say it as a apavada to a particular vibhakti. Depending on the usage, we treat it as a apavada to whatever kind of vibhakti could have applied there. Okay? So each example has to be understood in its own right. Prakritya charuhu. Sambandha tritiyarthaha. So here, tritiya is indicating sambandha. ప్రకృతిః స్వభావః తత్సంబంధి చారుత్వవాన్ ఇత్యర్థః. సో ద చారుత్వ ద అట్రాక్టివ్నెస్ ఇస్ రిలేటెడ్ టు నేచర్. ఓకే, సో స్వభావ ప్రకృతిః స్వభావః తత్సంబంధి చారుత్వవాన్ ఇత్యర్థః. తస్మిన్ అర్థే సంబంధే శేషే షష్ఠి ఇది షష్ఠీ విభక్తౌ ప్రాప్తాయాం తదపవాదత్వేన తృతీయ విధీయతే. సో ఇన్ దిస్ కేస్ తృతీయ ఇస్ అన్ అపవాద టు షష్ఠి. యదా తు స్వభావేన ఏవ అయం అభిరూపః నతు అలంకారాదినా ఇతి కరణాంతర వ్యుదాసాయ ప్రకృతే కరణత్వం వివక్ష్యతే తదా కర్తృకరణయోః ఇత్యేవ సిద్ధం ఇతి భాష్యం. సో ద భాష్య డస్ దిస్ ఫర్ ఈచ్ ఎగ్జాంపుల్ ఇన్ ద ఇన్ దిస్ లిస్ట్. ఓకే, వాట్ ఎవర్ హీ హస్ ప్రకృత్యాచారు ప్రాయణ వ్యతిక అండ్ ఆల్. So in each example, it depends on the vivaksha. In a particular kind of vivaksha, tritiya vibhakti can be had from other sources. Say in this case, prakritya charuhu, alankarena charuhu ityasti, he is attractive because of the alankara. Tatra alankarasya karanatvam asti. So na alankarena kintu prakritya iti karanantara vyudasaya. To say that, to negate agar karana. If you intend or if the vivaksha is karanatva for prakriti, yadatu svabhavena eva ayam abhirupaha so alankaradina iti karanantara vyudasaya prakritehe karanatvam vivakshate. If karanatva is the vivaksha, tada kartukaranayoho ityeva siddham iti bhashyam. So tasmin arthe kartukaranayoho tritiya ityaneena eva tritiya siddhyati. Yadatu karanatvam na vivakshate kintu sambandhaha eva vivakshate. తత్ర షష్ఠీ విభక్తి అపవాదత్వేన తృతీయా విభక్తి అనేన వాస్తికేన. पुत्रायेण याज्ञिकः पुत्रायेण याज्ञिकः इति प्रायशब्दः बहुल आदि तो प्राय शब्द जनरली इट इंडिकेट्स जनरली इत्यर्थ है प्रायेण इति उपयोग भवति किंतु अत्र बहुलम इत्यर्थः प्राय शब्द बहुलवाची बहुलाचार संबंधी याज्ञिकत्ववान इत्यर्थः बहुलाचार ही हैज मेनी रूल्स और ही फॉलोज मेनी डिफरेंट रूल्स और रेगुलेशन सो बाय दैट यू नो दैट ही इज अ याज्ञिक दैट इज ही इज द कर्ता इन अ यज्ञ ओके सो बहुलाचार संबंधी याज्ञिकत्ववान इत्यर्थः अत्रापि संबंधः तृतीयार्थः संबंधश्च ज्ञाप्य ज्ञापक भावः एंड व्हाट काइंड ऑफ अ संबंध इट इज ज्ञाप्य ज्ञापक एज वी सॉ ज्ञापक इज दैट व्हिच इंडिकेट्स सो इंडिकेटर द बहुलाचार इज एन इंडिकेटर ऑफ हिज याज्ञिकत्व दैट इज सिंस ही फॉलोज दोज मेनी रूल्स इट इंडिकेट्स दैट ही इज अ याज्ञिक सो द रिलेशन देयर वी कॉल इट एज ज्ञाप्य ज्ञापक भावः सो बहुलेन आचारेण हेतुना सो दट इज हियर प्रायेण याज्ञिक संबंध तृतीयार्थ षष्ठी विभक्तिपमानेन तृतीया इति ज्ञायते नौ बहुलेन आचारेण हेतुना ज्ञाप्य याज्ञिकत्ववान् इत्यर्थे तु इत्थंभूतलक्षणे इत्येव सिद्धम् दिस इज वन मोर सूत्र इत्थंभूतलक्षणे वेर there is tritiya vibhakti which is told like he says jatadhittapakha where kanchit prakaram praptasya lakshane tritiya syat so he says if you are using that itthambhuta lakshane ityanenapi tritiya bhavati yada bahulena acharena hetuna jnapya yatnikatvavan So when you are using that lakshya-lakshana bhava directly, you can have tritiya by itthambhuta lakshane. So when you are indicating only the sambandha, okay, only when the sambandha is vivakshita, the sambandha is of the kind of jnapaka bhava is true. Kintu yada kevalaha sambandha vivakshyate, natu lakshya-lakshana bhavaha sakshat vivakshyate, tada anena vartikena tritiya, anyata itthambhuta lakshane ityanenaika tritiya. बहुलेन आचारेण हेतुना ज्ञाप्य याज्ञिकत्ववान् इत्यर्थे तु इत्थंभूतलक्षणे इत्येव सिद्धम् बहुलेन आचारेण सम्पन्न याज्ञिकत्ववान् इत्यर्थे तु करणत्वादेव सिद्धम् इति भाष्यम् यू केन् आल्सो हेव् अ करण हियर् दट् इस् दिस् बहुलाचार इस् वाट् गिव्स् हिम् याज्ञिकत्व दट् इस् इफ् ही डस् नाट् हेव् It is the instrument in making him a yagika. So if you use that sense, karanatvam iri vivakshyate, tadantu kartakaranayo siddhiya ityapi siddhiya siddhyati. So you can see what are the different shades of meaning that can be had in the same vibhakti, having the same siddhiya. But there can be so many different shades under that meaning. You can indicate it as karana or as lakshya. Lakshana or as just a sambandha. Okay, so depending on it, you have different sutras. In all cases, we have sutiya vibhakti by different sutras. Gotrena gargyaha. So somebody, he belongs to the gotra. He is gargya by his gotra. Okay. सो गोत्रेण गार्ग्य गोत्रम अस्य गार्ग्य गोत्र इज गार्ग्य प्रथमार्थे अत्र प्रथमा प्राप्ता सो एज एन अपवाद प्रथमा विभक्ति वी हैव तृतीया सो गोत्रेण हेतुना ज्ञाप्य गार्ग्यत्वमान इत्यर्थे इत्थं भूत लक्षणे इत्येव सिद्धम् इति भाष्यम् सो एवरीवेयर ही सेज दैट द भाष्य डिस्कसेस दिस एंड सेज इट इज अ डिफरेंट मीनिंग यू कैन हैव इत्थं भूत लक्षणे बट इन व्हेन दैट मीनिंग इज नॉट इंडिकेटेड इज नॉट इंटेंडेड विवक्षितः नास्ति तदा तु इदं वार्तिकम् अपेक्षितम् समेन एति विषमेण एति सो हि वॉक्स इवनली हि वॉक्स अनइवनली इत्यर्थः सो क्रियाविशेषणम् एतत् इन बोथ दिस केस सम एंड विषम आर ट्रीटेड एज क्रियाविशेषणम् दट इज अ स्पेशल केस वेयर वी हैव क्रियाविशेषणानां कर्मत्वं क्लीबता च इत्यस्ति So kriya visheshana will always be treated as karma and will have dvitiya vibhakti. An example one. Shigram gachati. Shigram iti kriya visheshanam. So it is karma and it gets dvitiya. Okay. So as an apavada, kriya visheshanam etat samam vishamam cha gamanam karoti ityarthaha. Karmani dvitiya prapta. Since there karma, you generally have karmani dvitiya. And as an apavada to that, we have tritiya. Samena vishamena va patha eti ityarthetu karanatvadeva siddham. Now, if samena is a kriya visheshana, we have the svartika, tritiya by the svartika. But if you intend samena patha yati, the path is even or uneven. So, if that is a karana, the path is the karana for gamana, so tada karanatva tritiya. Bhavitum arhati. Vidronena dhanyam krinati. So he buys dhanya, so grain, with two drona. Drona is a measure, which we have seen already, drona vrihihi. So vidronena, two drona. Vidronena dhanyam krinatiti. Vayohu dronayohu samaharaha vidronam. Patraditvam na sritvam. That is regarding the dvigu. We have vidrona. Vidrona sambandhi dhanyam. Ityarthe shashti prapta. Here again, sambandhe shesha shashti prapta satya apavada svena tritiya sattihi uchyate. So, vidrona parimita dhanya mulyam hiranyam vidronam tena krinati ityarthetu karanatvadeva siddham. Again, you can have karana here. Vidrona means hiranya, that is gold of two drona. So, it is the gold which is the value for two dronas of dhanya. Here it is vidronena dhanyam krinati, is that he buys two dronas of dhanya. And sambandha is vivakshita. If you want to say he buys dhanya with the help of the gold which is the mulya, which is the price for two dronas of dhanya. Vidrona parimita dhanya mulyam hiranyam vidronam. Tena krinati ityarthetu karanatvane asiddham iti bhashyam. Sukhena dukhena va yati. Sukhena yati, dukhena yati. So again this is like samena yati, vishamena yati. Okay. Kriya visheshana. Sukhajanakam yanam karoti ityarthaha. Kriya visheshanam dvitiya prapta. So everywhere, wherever you have kriya visheshana, we have karmani dvitiya. So to overrule that, we have tritiya here. So that is Sukhena yati. And he says ityadi. So on. So these are the words which are in the gana. As we saw, it is an akriti gana. So similar prayoga can be there. So ityadi iti. Namna sutikshnaha. His name is sutikshna. Nama sambandhi sutikshna swavan ityarthaha. Nama jnapya sutikshna swavan ityarthetu. Itam bhuta lakshane ityeva siddham. So in other cases, we can have itam bhuta lakshana. Dhanyena dhanavan. Okay, he is rich by his grain. That is, he possesses a lot of grain and therefore he can be treated as rich. Dhanyena dhanavan ityatratu abhedaha tritiyarthaha. So dhanyameva dhanam ityarthaha. Abhedaha tritiyarthaha. Dhanyabhinna dhanavan ityarthaha. Vanhitvena vanhim janami ityatratu prakaratvam tritiyarthaha. Vanhitva prakaraka vanhijnanam an asmi ityarthaha ityadi ukhyam. So all such cases where we have tritiya vibhakti can be substantiated using this vartika prakrityadibhya upasankhyanam. Any question? Prakara here means the visheshana. We have the prakara of tarka. Prakara is the visheshana. Vanhitvam. Vanhitva prakarakam vanhijnanam. Any other question? Use of love versus love. No.
Ula is not, Ula is found only in the Vedas, according to this. It is not there in the Akshara Samamnaya, and there is no grammar rule which deals with Lakara and Lakara separately. Okay? So it is always Lakara. So in the Veda, La is used as a substitute for Da in cases where say Agnimide. So Ide etyatra Lakaraha Shruyate Vaidikaha Prayogaha. Laukika Prayoga Lakarasya Prayogaha Samskrute Nasti. There is no La in classical Sanskrit. Okay. It is there in the Balavanarama, Lakara. It should be a typing error. There is no Lakara in Lauska in Sanskrit.
So, if you have seen that, it could be an error. Then, yeah, so it should be a printing error and not a, it is Bahula. Any other question? We'll stop here and we'll continue with Upapara Pratiya in the next class. In Akshara Kamamaya Variyamyam Heshwara Sustram Vyakaranam Prokhtam Tishmai Pandana Yenamaha मुनित्रयन नमस्कृत्य अरुत्तीः परिभाषित विज्ञाकरण सिद्धांत कौमुदीयं रक्षते।